प्रियङ्गुगलिका श्यामम् रूपेण प्रतिमं बुधम् सौम्यं सौम्यगुणोपेतं कङ्गुधं प्रणमाम्यहम् देवानां च ऋषीणां च गुरुं काचन सन्निभम् बुद्धिभूतं त्रिलोकेशं तं नमामि बृहस्पतिं हिमकुन्द्रमृणालाभम् दैत्यानां परमं गुरुं सर्वशास्त्राप्रवक्तारं भार्गवं प्रणमाम्यहम् प्रियङ्गुगलिका श्यामम् रूपेण प्रतिमं बुधं सौम्यं सौम्यगुणोपेतं तं बुधं प्रणमाम्यहम् देवानां च ऋषीणां च गुरुं काचन सन्निभम् बुद्धिभूतं त्रिलोकेशं तं नमामि बृहस्पतिं हिमकुन्द्रमृणालाभम् दैत्यानां परमं गुरुं सर्वशास्त्राप्रवक्तारं भार्गवं प्रणमाम्यहम्।